You are listening to the Agastya R. Bhavantaha Agastya Satram Shrinvanti.
On the occasion of Rama Navami, the students of Agastya Gurukulam will be presenting Rama Geetam, Rama Bhajanam, and Rama Stotrani. Now, the Aksharavarga and Vakyavarga student of Agastya Gurukulam, Swara and Yatharta, are going to recite Rama Raksha Stotram.
Shri Ganeshaya Namaha.
Shri Ganeshaya Namaha.
Asya Shri Rama Raksha Stotra Mantrasya.
Asya Shri Rama Raksha Stotra Mantrasya.
Budhakaushika Rishihi.
Budhakaushika Rishihi.
Shri Sita Rama Chandrau Devata.
Shri Sita Rama Chandro Devata.
Anushtup Chandaha.
Anushtup Chandaha.
Sita Shaktihi.
Sita Shaktihi.
Shriman Hanuman Kilakam.
Shriman Hanuman Kilakam.
Shri Rama Chandra Prityarthe.
Shri Rama Chandra Prityarthe.
Rama Raksha Stotra Jape.
Rama Raksha Stotra Jape.
Viniyogaha.
Viniyogaha.
Atha Dhyanam.
Atha Dhyanam.
Yaye Dajanu Bahum.
Yaye Dajanu Bahum.
Dhrutasharadhanusham.
Dhrutasharadhanusham.
Paddhapadmasanastham.
Paddhapadmasanastham.
Pitam Vaso Vasanam.
Pitam Vaso Vasanam.
Navakamaladalaspardhinetram.
Navakamaladalaspardhinetram.
Prasannam.
Prasannam.
Vamankarudha Sita.
Vamankarudha Sita.
Mukhakamalamilallochanam.
Mukhakamalamilallochanam.
Neeradabham.
Neeradabham.
Nanalankaradeeptam.
Nanalankaradeeptam.
Dadhata Murujata.
Dadhata Murujata.
Mandalam Ramachandram.
Mandalam Ramachandram.
Iti Dhyanam.
Iti Dhyanam.
Charitam Raghunathasya.
Charitam Raghunathasya.
Satakoti Pravistaram.
Shatakoti Pravistaram.
Ekaikamaksharam Punsam.
Ekaikamaksharam Punsam.
Mahapatakanashanam.
Mahapatakanashanam.
Dhyatva Nilotpalashyamam.
Dhyatva Nilotpalashyamam.
Ramam Rajivalochanam.
Ramam Rajivalochanam.
Janaki Lakshmanopetam.
Janaki Lakshmanopetam.
Jata Mukuta Manditam.
Jata Mukuta Manditam.
Sasi Tuna Dhanurbana.
Sasi Tuna Dhanurbana.
Aninak Tancharantakam.
Panim naktam charantakam.
Svalilaya jagatratum.
Svalilaya jagatratum.
Avirbhutam ajam vibhum.
Avirbhutam ajam vibhum.
राम रक्षां पठेत् प्राज्ञः
राम रक्षां पठेत् प्राज्ञः
पापग्नीं सर्वकामदां
पापग्नीं सर्वकामदा
शिरो मे राघवः पातु
शिरो मे राघवः पातु
भालं दशरथात्मजः
भालं दशरथात्मजः
कौशल्येयो दृशो पातु
कौशल्येयो दृशो पातु
विश्वामित्र प्रियश्रुति
विश्वामित्र प्रियश्रुति
प्राणं पातु मखत्राता
प्राणं पातु मखत्राता
मुखं सौमित्रिवत्सलः
मुखं सौमित्रिवत्सलः
जिह्वां विद्यानिधिः पातु
जिह्वां विद्यानिधिः पातु
कण्ठं भरतवन्दितः
कण्ठं भरतवन्दितः
स्कन्धौ दिव्यायुधः पातु
स्कन्धौ दिव्यायुधः पातु
भुजौ भग्नेशकार्मुकः
भुजौ भग्नेशकार्मुकः
करौ सीतापतिः पातु
करौ सीतापतिः पातु
हृदयं जामदग्न्यजित्
हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी
मध्यं पातु खरध्वंसी
नाभिं जाम्बवदाश्रयः
नाभिं जाम्बवदाश्रयः
सुग्रीवेश कटीपातु
सुग्रीवेश कटीपातु
शक्तिनी हनुमत् प्रभु
शक्तिनी हनुमत् प्रभु
ऊरु रघुत्तमः पातु
ऊरु रघुत्तमः पातु
रक्षः कुलविनाशकृत्
रक्षः कुलविनाशकृत्
जानुनी सेतु कृत् पातु
जानुनी सेतु कृत् पातु
शङ्घे दशमुखान्तकः
शङ्घे दशमुखान्तकः
पादौ विभीषणश्रीदः
पादौ विभीषणश्रीदः
पातु रामोऽखिलं वपुः
पातु रामोऽखिलं वपुः
एतां राम बलोपेताम्
एतां राम बलोपेताम्
रक्षाय सुकृति पठेत्
रक्षाय सुकृति पठेत्
सचिरायुः सुखी पुत्री
सचिरायुः सुखी पुत्री
विजयी विनयी भवेत्
विजयी विनयी भवेत्
पातालभूतलव्योम
पातालभूतलव्योम
चारिणश्छद्मचारिणः
चारिणश्चत्यचारिणः
न द्रष्टुमपि शक्तास्ते
न द्रष्टुमपि शक्तास्ते
रक्षितं रामनामभिः
रक्षितं रामनामभिः
रामेति रामभद्रेति
रामेति रामभद्रेति
रामचन्द्रेति वा स्मरन्
रामचन्द्रेति वा स्मरन्
नरो न लिप्यते पापैर्
नरो न लिप्यते पापैः
मुक्तिं मुक्तिं च विन्दति
मुक्तिं मुक्तिं च विन्दति
जगज्जैत्रैकमन्त्रेण
जगज्जैत्रैकमन्त्रेण
रामनाम्नाभिरक्षितम्
रामनाम्नाभिरक्षितम्
यः कंठे धारयेत् तस्य
या कंठे धारयेत् तस्य
परस्था सर्वसिद्धयः
परस्था सर्वसिद्धयः
वज्रपञ्जरनामेदम्
वज्रपञ्जरनामेदम्
यो रामकवचं स्मरेत्
यो रामकवचं स्मरेत्
अव्याहताग्न्य सर्वत्र
अव्याहताग्न्य सर्वत्र
लभते जयमंगलम्
लभते जयमंगलम्
आदिष्टवान्यथा स्वप्ने
आदिष्टवान्यथा स्वप्ने
राम रक्षामि मां हरः
राम रक्षामि मां हरः
तथा लिखितवान् प्रातः
तथा लिखितवान् प्रातः
प्रबुद्धो बुधकौशिकः
प्रबुद्धो बुधकौशिकः
आरामः कल्पवृक्षाणाम्
आरामः कल्पवृक्षाणाम्
विरामः सकलापदाम्
विरामः सकलापदाम्
अभिरामस्त्रिलोकानाम्
अभिरामस्त्रिलोकानाम्
रामश्रीमांसनः प्रभुः
रामश्रीमांसनः प्रभुः
तरुणौ रूपसम्पन्नौ
सुकुमारौ महाबलौ
पुण्डरीकविशालाक्षौ
क्षीरकृष्णाजिनाम्बरौ
फलमूलाशिनौ दान्तौ
तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्येतौ भ्रातरौ रामलक्ष्मणौ
शरण्यौ सर्वसत्त्वानाम्
श्रेष्ठौ सर्वधनुष्मताम्
रक्षाकुलनिहन्तारौ
त्रायेतां नो रघुत्तमौ
Agastya Gurukulam is a non-profit organization dedicated to reviving the traditional system of Bharatiya Shiksha and decolonizing education. Agastya runs the world's first and only Sanskrit immersion online school. Would you like your child to be deeply rooted in traditional Bharatiya culture and yet successful in the contemporary world? Explore Agastya's part-time and full-time learning opportunities. For more information, visit Agastya's website at www.agastyagurukulam.org.